मंगलो भूमिपुत्रस्य ऋणहर्ता धनप्रदः स्थिरासनो महाकाय सर्वकामविरोधकः लोहितो लोहिताक्षस्य सामगानां कृपाकरः धरात्मज कुजो भौमो भूतिदो भूमिनन्दनः अंगारको यमश्चैव सर्वरोगापहारकः वृष्टिकर्तापहर्ता च सर्वकामफलप्रदः एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् स्तोत्रमङ्गारकस्यैतत् पठनीयं सदा नृभिः न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् अंगारक महाभाग भगवन् भक्तवत्सल त्वां नमामि ममाशेष मृणमाशु विनाशयः ऋणरोगादिदारिद्र्यं ये चान्ये चापमृत्यवः भयक्लेशमनस्तापा नश्यन्तो मम सर्वदा अतिवक्रतुरारा भोगमुक्तचितात्मनः तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् विरञ्चिशक्रविष्णोनां मनुष्याणां तु का कथा तेन त्वं सर्वसत्त्वेन गृहराजो महाबलः पुत्रां देहि धनं देहि त्वामस्मि शरणं गतः ऋणदारिद्र्यदुःखेन शत्रूणां च भयात्ततः एभिर्द्वादशभिः श्लोकैर्यस्तौति च धरासुतं महतिं श्रियमाप्नोति ह्यपरो धनदो युवा